श्रीमद् भगवद् गीता नवमोध्याय राजगुह्यजोग श्री भगवान उवाच इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ज्ञानं विज्ञानसहितं यज्ञत्वा मुक्षसे शुभात् राजविद्या राजगुह्यं पवित्रम् इदमुत्तमम् प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् अश्रद्धधाना पुरुषा धर्मस्यास्य परन्तप अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि मया ततमिदं सर्वं जगदव्यक्तमूर्तिना मत्सानि सर्वभूतानि न चाहं तेष्वस्थितः न च मत्स्थानि भूतानि पश्यमे योगमेश्वरं भूतभृन्न च भूतस्थो ममात्मा भूतभावनः यथाकाशस्थितो नित्यं वायुः सर्वत्र गो महान् तथा सर्वाणि भूतानि मत्स्थानि त्वपधारय सर्वभूतानि कौन्तेय प्रकृतिं जान्ति मामिकां कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहं प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः भूतग्राममिमं कृष्णम् अवशं प्रकृतिर्वशात् न च मां तानि कर्माणि निबध्नन्ति धनञ्जय उदासीनवदासीनमशक्तं तेषु कर्मसु मयाध्यक्षेन प्रकृतिः श्रूयते सचराचरं हेतुनानि तु कौन्तेय जगद्विपरिवर्तते अवजानन्ति मां मूढा मानुषीं तनुमाश्रितं परं भावमजानन्तु मम भूतमहेश्वरं मोघासा मोघकर्माणो मोघज्ञानाविचेतसः राक्षसी मासुरिञ्चैव प्रकृतिमोहिनीं श्रिता महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिता भजन्तनन्नमनसो ज्ञात्वा भूतादिमव्ययम् सततं कीर्तयन्तु मां यतन्तश्च दृढव्रता नमस्यन्तश्च मां भक्त्या नित्यजुक्तो उपासते ज्ञानयज्ञेन चापन्ने जयन्तु मामुपासते एकत्वेन पृथक्तेन बहुधा विश्वतो मुखम् अहं कृतुरहं यज्ञ सदाहम् अहमौषधम् मन्त्रोऽहम् अहमेवाज्य अहमग्नि अहं सुतं पितामहस्य जगतो माता धाता पितामहः वेदं पवित्रमङ्कार ऋक्षाम जजुरेव च गतिर्भर्ता प्रभुसाक्षी निवासशरणं सुरित् प्रभवप्रलयस्थानं निधानं बीजमव्ययं तपाम्यहमहं वर्षं निगृह्णामुत्सृजामि च अमृतं चैव मृत्युश्च सद् असत् च अहमर्जुन त्रैविद्या मां सोमपा पूतपापा यज्ञैरिष्ट्वा सर्गतिं प्रार्थयन्ति ते पुण्यमासाद्य सुरेन्द्रलोक अश्नन्ति दिव्यान् दिवि देवभोगान् ते तं भुक्त्वा सर्गलोकं विशालं क्षीणे पुण्येमर्त्यलोकं विशन्ति एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामालभन्ति अनन्याश्चिन्तयन्तु मां ये जनाः पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ये पन्नदेवता भक्ता जयन्ते श्रद्धयान्विताः तेऽपि मामेव कौन्तेय जयन्तविधिपूर्वकम्। अहं हि सर्वज्ञानां भोक्ता च प्रभुरेव च न तु मामभिजानन्ति तत्ते नाथश्च वन्ति ते जन्ति देवव्रता देवान् पितृञ्जान्ति पितृव्रता भूतानि जन्ति भूतेज्य जन्ति मद्जाजिनोऽपि मां पत्रं पुष्पं फलं तोयं जो मे भक्त्या प्रयच्छति तदहं भक्तुपहृतम् अश्नामि प्रयतात्मनः यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् यत्तपस्यसि कौन्तेय तत् कुरुष्व मदर्पणम् शुभाशुभफलैरेवं मक्षसे कर्मबन्धनै संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि समं सर्वभूतेषु न मे दिश्यस्ति न प्रियः ये भजन्ति तुमां भक्त्या मयि ते सुचाप्यहम् अपि चेत् सुदुराचारो भजते मामनन्नभाक् साधुरेव समन्तद्व सम्यग्भवसितो हि स क्षिप्रं भवति धर्मात्मा सस्वच्छान्तिः निगच्छति कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति मां हि पार्थ व्यपाश्रित्य जेपिषु पापजोनया स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि जान्ति पराङ्गतिं किं पुनर्ब्राह्मणा पुण्या भक्ता राजसस्तथा अनित्यम् असुखं लोकम् इमं प्राप्य भजस्व मां मन्मना भव मद्भक्तो मज्जाजी मां नमस्कुरु मामेव इष्यसि युक्तैवम् आत्मानं मत्परायणः इति श्रीमहाभारते शतसाहस्रां संहितायां वैयासिकां भीष्मपर्मणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजगुह्यजुगो नाम नवमोऽध्यायः।